एष रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ता प्रस्तोत्री रत्नावली शर्मा। प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते आवश्यक मतपत्राणां मुद्रण कार्यम् अन्तिमे चरणे प्राप्तमस्ति। जनक शिक्षा सामग्री केन्द्र लिमिटेड संस्थया मतपत्राणां मुद्रण कार्यम् विधीयमानमस्ति। श्वः रविवासरं यावत् सम्पूर्णानां मतपत्राणां मुद्रण कार्यम् सम्पत्स्यते इति जनक शिक्षा सामग्री केन्द्रस्य प्रबन्ध निर्देशकः यदुनाथ पौडेलः असूचयत्। प्रधानमन्त्री सुशीला कार्की ताप्लेजुङ जनपदस्य निर्वाचनस्य पूर्व कार्यस्य सुरक्षा व्यवस्थापनस्य भौगोलिक समाहोयस्य च विषयेष् सम्बद्धै निकायै सह विमृष्टवती अस्ति। ह्य ताप्लेजुङ जनपदे प्राप्ता प्रधानमन्त्री कार्की अस्यैव फाल्गुन मासस्य एकविंशे दिवसे आयोक्ष्यमाणं निर्वाचनं भयरहिततया शान्तिपूर्णतया निष्पक्षतया च सम्पादयितुं मुख्य निर्वाचनाधिकृतान् सुरक्षा निकायान् च निरदिशत्। प्रधानमन्त्रिणा कार्किणा निष्पक्षे शान्ते भयरहिते च वातावरणे निर्वाचनं भविष्यति इति विषये निश्चिन्ततया स्थातुं मतदातृभ्य राजनीतिक दलेभ्य प्रत्याशिभ्यश्च आग्रह कृत। ताप्लेजुङ जनपदस्य प्रमुख जनपदाधिकारी शिवराज सेढाई जनपदस्य समग्राया सुरक्षा व्यवस्थाया मतदान केन्द्रस्य भौतिक्यावस्थाया सम्प्राप्ति विवरणस्य च विषयान् प्रधानमन्त्रिण समक्षम् प्रास्तौत। ताप्लेजुङ जनपदस्य 80 मतदानस्थलेष् 28 मतदानस्थलानि अतिसंवेदनशीलानि, 25 मतदानस्थलानि संवेदनशीलानि, 27 मतदानस्थलानि च सामान्यानि वर्तन्ते इति ज्ञापितमस्ति। प्रधानमन्त्रिणा कार्किणा ह्य एव पाथिभरादेभ्यः पूजार्चनं विहितम् आसीत्। जनता समाजवादी नाम्नः जसपा दलेन प्रतिनिधि सभा सदस्यानां निर्वाचनस्य कृते ह्य निर्वाचन सम्बद्धं घोषणापत्रं सार्वजनिकृतमस्ति। ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे जसपा दलस्य अध्यक्षः उपेन्द्र यादवः घोषणापत्रं सार्वजनिकुर्वन् घोषणापत्रे निःशुल्क स्वास्थ्य सेवा, भ्रष्टाचार मुक्त देशः, वैज्ञानिक्यः, कृषेः आधुनिकीकरणं, पूर्वाधार विकासः, सामाजिको न्यायश्चेति विषयाः प्राथमिकतायां स्थापिताः सन्तीति उदघोषयत्। अत्रान्तरे नेपाली कांग्रेस दलेन श्वः रविवासरे दलस्य घोषणापत्रं प्रकाशयिष्यति। दलेन एतत् विक्रमवर्षीयस्य प्रतिनिधिसभा सदस्यानां निर्वाचनस्य कृते श्वः दल केन्द्रीय कार्यालये घोषणापत्रं प्रकाशयिष्यते इति दलस्य प्रवक्ता देवराज चालिसे अज्ञापयत्। राष्ट्रपतिः रामचन्द्र पौडेलः निर्वाचनं स्वच्छे निष्पक्षे भयरहिते च वातावरणे सम्पादयितुम् आवश्यक्याः शान्ति सुरक्षायाः प्रबन्धं सशक्तं सुदृढं प्रभावकारिणं च विधातुं निर्दिशति। शीतल निवासवर्तिनी राष्ट्रपति कार्यालये ह्य गृहमन्त्रिणा सहितानां सुरक्षा निकायानां प्रमुखैस्सह सम्भूते मेलने राष्ट्रपतिः पौडेलः एवं निर्दिष्टवान्। अत्रान्तरे राष्ट्रपतिः पौडेलः विश्वव्यापिन्याः अवधारणाया अनुसारेण स्थापितेन राष्ट्रिय क्याडेट कोर इति कार्यक्रमेण युवस् राष्ट्रियतायाः, देशभक्तेः, नेतृत्वस्य, आत्मविश्वासस्य, राष्ट्रसेवायाश्च गुणानां विकासे प्रवर्धने च सबलतया कार्यं विधीयते इति उक्तवान् वर्तते। एनसीसी यूथ एक्सचेंज इति कार्यक्रमस्य सहभागिनां कृते शीतल निवासवर्तिनी राष्ट्रपतिभवने आयोजिते कार्यक्रमे राष्ट्रपतिः पौडेलः एवम् उक्तवान्। कार्यवाहक प्रमुख निर्वाचन आयुक्त रामप्रसाद भण्डारी निगदति निर्वाचन सम्बद्धं समाचारं सम्प्रेष्य मतदातृन् जागरूकान् विधातुं संचार माध्यमानां पत्रकाराणां च भूमिका महत्वपूर्णा भवति। निर्वाचन आयोगेन ह्य काष्ठमण्डपे आयोजिते कार्यक्रमे भाषमाण कार्यवाहक प्रमुख निर्वाचन आयुक्त भण्डारी देशं सन्मार्गे नेतुं निर्वाचनमेव निर्विकल्पो विषयोऽस्तीति प्रावोचत्। असौ सामाजिक सञ्जालात् मिथ्यापूर्णां हानियुक्तां च सूचनां प्रसार्य निर्वाचने अवरोधं समानेतुं प्रयासः अपि जायमानः सन्तीत्यतः संचारमाध्यमैः जागरणस्य सञ्चेतनां प्रसारयितुं बलं प्रादात्। राष्ट्रियसभायाः ह्यस्तनोपवेशे गतार्थिकवर्षस्य मुस्लिम आयोगस्य वार्षिकं प्रतिवेदनं प्रस्तुतमस्ति। सभायाः ह्यस्तनोपवेशे प्रधानमन्त्रिणः पक्षतः विधि न्याय संसदीय विषयमन्त्री अनिलकुमार सिन्हा प्रतिवेदनमिदं प्रास्तौत्। उपवेशे विधायन व्यवस्थापन समितेः सभापतिः तुलसा कुमारी दाहालः संघीय समितेषु विधायिकान्तर सम्बद्धम् एतद् विक्रमवर्ष्यम् प्रतिवेदनम् पञ्चसप्तत्युत्तर द्विसहस्रतम विक्रमवर्ष्यम् बाल बालिका सम्बद्धादि नियमाञ्च प्रास्तौत्। उपवेशस्य अध्यक्षताम् विदधत्या राष्ट्रियसभायाः उपाध्यक्षया विमला घिमिरेभिधया प्रधानमन्त्री मन्त्रिपरिषदः कार्यालयात् प्राप्तम् मन्त्रिपरिषदः सदस्यानाम् कार्यभार निर्धारण सम्बद्धम् पत्रविवरणम् प्रस्तुतमासीत्। ह्यस्तनोपवेशे सांसदः प्रतिनिधिसभायाः आसन्नम् निर्वाचनम् स्वतन्त्रतया निष्पक्षतया शान्तिपूर्णतया च सम्पादयितुम् बलम् प्रदाय लोकतान्त्रिकम् मूल्यम् मान्यताम् च सुदृढाम् विधातुम् अवसरस्य रूपेण ग्रहीतव्यमिति उक्तवन्तः। अत्रान्तरे राष्ट्रपतिना रामचन्द्र पौडेलेन राष्ट्रियसभायाः अधिवेशनस्य अन्तिम विहितमस्ति। सर्वकारस्य मन्त्रिपरिषद परामर्शेन संविधानस्य त्रिनवतितम धारायाः द्वितीयोपधारायाः अनुसारेण राष्ट्रपतिना पौडेलेन गतरात्रौ द्वादशवादनात् क्रियान्वयनत्वेन राष्ट्रियसभायाः अधिवेशनस्य अन्त्यम् विहितमस्तीति राष्ट्रपतेः कार्यालयस्य प्रवक्त्रा रितेश कुमार शाक्येन प्रकाशितायाम् विज्ञप्तौ उल्लिखितम् वर्तते। ततः पूर्वम् गत सोमवासरे उपविष्टेन मन्त्रिपरिषदः उपवेशेन राष्ट्रियसभायाः अधिवेशनस्य अन्त्यम् कर्तुम् राष्ट्रपतेः समक्षम् परामृष्टुम् निर्णीतमासीत्। राष्ट्रियसभायाः अधिवेशनम् गत माघमासस्य चतुर्थे दिवसे प्रारब्धमासीत्। गृहमन्त्री ओमप्रकाश अर्यालः भाषते प्रतिनिधिसभा सदस्यानां निर्वाचनं स्वच्छे निष्पक्षे भयरहिते च वातावरणे सम्पादयितुं सर्वकारस्य पक्षतः कापि न्यूनता न भविष्यति। शान्ति सुरक्षायाः निर्वाचनस्य सामयिक विषयेषु च नेपाल नगरपालिका संघस्य ग्रामपालिका राष्ट्रिय महासंघस्य जनपद समन्वय समिति महासंघ नेपालस्य च पदाधिकारीभिस्सह ह्य मन्त्रालये सम्भूते विमर्शने गृहमन्त्री अर्यालः सुव्यवस्थित निर्वाचनस्य व्यवस्थापनस्य कृते ओडास्तरं यावत् समन्वय सहकार्य सम्बद्धाम् अवधारणाम् निर्माय कार्यान्वयने आनीता अस्तीति समस्पष्टयत्। विमर्शने स्थानीय स्तराणाम् संघटनस्य प्रमुखै पदाधिकारिभिश्च स्वच्छे निष्पक्षे भैरहिते च वातावरणे निर्वाचनं सम्पादयितुं स्वस्थानात् समन्वयात्मका भूमिका निर्व्यूढा अस्तीति ज्ञापितम् वर्तते।